ओम नमो भगवते वासुदेवाय। अथ त्रयोविंशोऽध्यायः। मैत्रेय उवाच, दृष्ट्वात्मानं प्रवयसमेकदा वैन्यात्मवान् आत्मना वर्धिता शेषस्वानुसर्गः प्रजापतिः। जगतस्तस्थुषश्चापि वृत्तितो धर्मभृत्सताम् निष्पादितेश्वरादेशो यदर्थमिह जग्गीवान्। आत्मजेष्वात्मजान्यस्य विरहात् रुदतीमिव प्रजासु विमनस्वेकः सदा रोगात्तपोवनम्। तत्राप्यदाभ्य नियमो वैखानस सुसम्मते आरब्ध उग्रतपसि यथा स्वविजये पुरा। कन्दमूलफलाहार शुष्कपर्णाशन क्वचित् अभक्ष कतिचित् भक्षान् वायुभक्षस्ततः परम्। ग्रीष्मे पञ्चतपा वीरो वर्षाश्वासारसाण्मुनिः आकण्ठमग्न शिशिरे उदके स्थण्डिलेशयः। तितिक्षुर्यतवाग्दान्त ऊर्ध्वरेताजितानिलः आरिराधयिषु कृष्णमचरत्तप उत्तमम्। तेन क्रमानुसिद्धेन ध्वस्तकर्मामलाशयः प्राणायामै सन्निरुद्ध षड्वर्गश्छिन्नबन्धनः। सनत्कुमारो भगवान् यदाहाध्यात्मिकम् परम् योगम् तेनैव पुरुषमभजत् पुरुषर्षभः। भगवद्धर्मिणः साधोः श्रद्धया यततः सदा भक्तिर्भगवति ब्रह्मण्यनन्या विषयाभवत्। तस्यानया भगवतः परिकर्म शुद्ध सत्त्वात्मनस्तदनु संस्मरणानुपूर्त्या ज्ञानम् विरक्तिमदभून्निशितेन येन चिच्छेद संशयपदम् निज जीवकोशम् छिन्यान्यधीरधिगतात्मगतिर्निरीहस्तत्तत्यजेच्छिन्नदिदम् वयुनेन येन तावन्न योगगतिभिर्यतिरप्रमत्तो यावद्गदाग्रजकथासुरतिम् न कुर्यात्। एवम् स वीरप्रवरः संयोज्यात्मानमात्मनि ब्रह्मभूतो दृढम् काले तत्याजस्वम् कलेवरम्। सम्पीड्यपायुम् पार्ष्णिभ्याम् वायुमुत्सारयन् शनैः नाभ्याम् कोष्ठे स्ववस्थाप्य ऋतुरः कण्ठशीर्षणि उत्सर्पयन् सुतम् मूर्ध्नि क्रमेणावेश्य निःस्पृहः। वायुम् वायौ क्षितौ कायम् तेजस्तेजस्य यूयुजत् खान्याकाशे द्रवम् तोये यथा स्थानम् विभागशः। क्षितिमम् भसि तत्तेजस्य दो वायौ नभस्य मुम् इन्द्रियेषु मनस्तानि तन्मात्रेषु यथोद्भवम्। भूतादिनामून्युत्कृष्य महत्यात्मनि सन्दधे तम् सर्वगुणविन्यासम् जीवे मायामयेऽन्यधात्। तम् चानुशयमात्मस्थमसावनुशयी पुमान् ज्ञानवैराग्यवीर्येण स्वरूपस्थो जहात्प्रभुः। अर्चिर्नाम महाराज्ञी तत्पत्न्यनुगतावनम् सुकुमार्य तदर्हा च यत्पद्भ्याम् स्पर्शनम् भुवः। अतीव भर्तुर्व्रतधर्मनिष्ठया शुश्रूषया चारसदेहयात्रया नाविन्दतार्तिम् परिकर्षितापि सा प्रेयस्करस्पर्शनमाननिर्वृतिः। देहम् विपन्नाखिलचेतनादिकम् प्रत्यु पृथिव्या दयितस्य चात्मनः। आलक्ष्य किञ्चिच्च विलप्य सा सती चितामथारोपयदद्रिशानुनि विधाय कृत्यम् ऋतिनि जलापृता दत्त्वोदकम् भर्तुरुदारकर्मणः। नत्वा दिविस्थान् स्त्रिदशान् स्त्री परीत्य विवेशवन्यम् ध्यायति भर्तृपादौ विलोक्यानुगताम् साध्वीम् पृथुम् वीरवरम् पतिम् तुष्टुवुर्वरदा देवैर्देवपत्न्यः सहस्रशः। कुर्वत्यः कुसुमासारम् तस्मिन् मन्दरसानुनि न दत्स्वमरतूर्येषु गृणन्ति स्म परस्परम्। देव्य ऊचुः, अहो इयम् वधूर्धन्या याचैवम् भूभुजाम् पतिम् सर्वात्मना पतिम् भेजे यज्ञेशम् शीर्वधूरिव सैषा नूनम् व्रजत्यूर्ध्वमनुवैन्यम् पतिम् सती पश्यतास्मानतीत्यार्चिर्दुर्विभाव्येन कर्मणा तेषाम् दुरापम् किम् त्वन्यन्मर्त्यानाम् भगवत्पदम्। भुवि लोलायुषो ये वै नैष्कर्म्यम् साधयन्त्युत स वञ्चितो बतात्मध्रुक् कृच्छ्रेण महता भुवि लब्ध्वापवर्ग्यम् मानुष्यम् विषयेषु विसज्जते। मैत्रेय उवाच, स्तुवतीष्वमरस्त्रीषु पतिलोकम् गतावधूः यम् वा आत्मविदाम् धुर्यो वैन्यः प्रापाच्युताशयः। इत्थम् भूतानुभावोऽसौ पृथुस्त भगवत्तमः कीर्तितम् तस्य चरितमुद्दामचरितस्य ते य इदम् सुमहत्पुण्यम् श्रद्धया वहितः पठेत् श्रावयेच्छृणुयाद्वापि स पृथो पदवीमियात्। ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपतिः वैश्य पठन् विट्पतिः स्यात्क्षूद्र सत्तमतामियात्। त्रिकृत्व इदमाकर्ण्य नरो नार्यथवादृता अप्रजा सुप्रजतमो निर्धनो धनवत्तमः।
अस्पष्टकीर्तिः
सुयशा मूर्खो भवति पण्डितः। इदम् स्वस्त्ययनम् पुंस ममङ्गल्यनिवारणम् धन्यम् यशस्यमायुष्यम् स्वर्ग्यम् कलिमलापहम् धर्मार्थकाममोक्षाणाम् सम्यक् सिद्धिमभीप्सुभिः श्रद्धयैतदनुश्राव्यम् चतुर्णाम कारणम परम विजयाभिमुखो राजा श्रुत्वै तदभियाति यान् बलिं तस्मै हरन्त्यग्रे राजा न पृथवे यथा मुक्तान्यसङ्गो भगवत्यमलां भक्तिमुद्वहन् वैन्यस्य चरितं पुण्यं शृणुयाच्छ्रावयेत् पठेत् वैचित्रवीर्याभिहितं महन्माहात्म्यसूचकम् अस्मिन् कृतमतिर्मर्त्यः पार्थिवीं गतिमाप्नुयात् अनुदिनमिदमादरेण शृण्वन् पृथुचरितं प्रथयन् विमुक्तसङ्गः भगवति भव सिन्धुपोतपादे स च निपुणां लभते रतिं मनुष्यः ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे त्रयोविंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुशासि मां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।